चतुर्दशोऽध्यायः श्रीभगवान् उवाच भूय एव महाबाहो शृणु मे परमं वच यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्य न मे विदुः सुरगणा प्रभवं न महर्षय अहमादेर्देवानां महर्षीणां च सर्वश यो मामजमनादेश वेत्ति लोकमहेश्वरम् असम्मूढसमर्थेषु सर्वपापैः प्रमुच्यते बुद्धिर्ज्ञानमसम्मोह क्षमा सत्यं दमः शमः सुखं दुःखं भवो भावो भयं चाभयमेव च अहिंसा समता तुष्टि स्तबोदानं यशो यश भवन्ति भावभूतानां मत एव पृथग्विदा महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा मद्भावा मनसा जाता येषां लोक इमाः प्रजा एतां विभूतिं योगं च नाम यो वेत्ति तत्त्वतः सोविकम्पेन योगेन युज्यते नात्र संशय अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते इति मत्वा भजन्ते मां दुराभावसमन्विता मच्चित्ता मद्वत् प्राणा बोधयन्तः परस्परम् कथयन्तश्च मां नित्यं तोष्यन्ति च रमन्ति च तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ददामि बुद्धियोगं तं येन मापुपयान्ति ते तेषामेवानुकम्पाथ मम ज्ञानजं तम नाशयाम्यात्मभावस्तु ज्ञानदीपेन भास्वता अर्जुनोवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् पुरुषं शाश्वतं देव्यमादिदेवमजं विभो आहो स्वामृषयः सर्वे देवर्षिर्नारदस्तथा असितो देवलो व्यास स्वयं चैव ब्रवीषि मे सर्वमेतद्धृतं मन्ये यन्मां वदसि केशव न हि ते भगवान् व्यक्तिर्देवान् दानवा स्वयमेवात्मनात्मानं व्यर्थत्वं पुरुषोत्तम भूतभावन भूतेश देवदेव जगत्पते वक्तुमर्हस्य शेषेण दिव्य जायात्मविभूतयो याभिर्विभूतिभिर्लोकानिमास्तौ व्याप्यतिष्ठसि कथं वेद्यामहं योगे स्वाक्षदा परिचिन्तय केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया विस्तरेणात्मनो योगं विभूते च जनार्दन भूय कथयते तेभिश्चेन्मदो नास्ति मे मृतम् श्रीभुवनुवच हन्तते कथयिष्यामि दिव्याह्यात्मविभूतय प्राधान्यतः कुरु श्रेष्ठ नास्त्यन्तो विस्तरस्य मे अहमात्मा गुडाकेश सर्वभूता सदस्थित अहमादेशमध्यं च भूतनामन्त एव च आदित्यानामहं विष्णो ज्योतिषां रविरल्सुमान् मरीचिर्मरुतामस्मि नक्षत्राणामहं शशि वेदानां सामवेदोऽस्मि देवानामस्मि वासव इन्द्रियाणां मनस्तस्मि भूतानामस्मि चेतना रुद्राणां शङ्करस्तस्मि वेत्तेषु यक्षरक्षसाम् वसूनां पावकस्तस्मि मेरुशिखरिणामहम् पुरोधुषां च मुख्यं मां वृद्धि पार्थ बृहस्पतिम् सेनानीनामहं स्कन्द सरसामस्मि सागर महर्षीणां भृगुरहं विरामास्म्येकमक्षरं यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालय अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारद गन्धर्वाणां चेत्वरथ सिद्धानां कपिलो मुनि उच्चैः श्रवसमश्वानां वृद्धि मामृतोद्भवम् ऐरावतं गजेन्द्राणां नराणां च नराधिपाम् आयुधानामहं वज्रं धेनूनामस्मि कामधो प्रजनस्वास्मिकां दर्प सर्पानामस्मि वासुकी अनन्तस्तास्मि नागानां वरुणो यादृशामहम् पितॄणामर्यमासस्मि यमसंयमतामहम् प्रह्लादस्तास्मि दैत्यानां कालकलदतामहम् मृगाणां च मृगीन्द्रोऽहं वैनतेयश्च पक्षिणां पवनपवतामस्मि रामशस्त्रभृतामहं झषाणां मकरस्तास्मि श्रोतसामस्मि जाह्नवी सर्गाणामाधिरन्तस्त मध्यं चैवाहमर्जुन अध्यात्मविद्या विद्यानां वाद प्रवदतामहम् अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च अहमेवाक्षयः कालो धाताहं विश्वभोमुख मृत्युः सर्वहरस्ताः मोद्भवश्च भविष्यताम् कीर्तिः श्रीर्वाक्च नारीणाम् स्मृतिर्मेधाधृते क्षमा बृहत्साम तथा साम्नाम् गायत्री छन्दसामहम् मासानाम् मार्गशीर्षोः ऋतूनाम् कुसुमाकर यूतं सलयतामस्मि तेजस्तेजस्विनामहम् जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् कृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जय मुनीनामप्यहं व्यास कवीनामुशना कवि दण्डो दमयतामस्मि नीतिरस्म जिगीषताम् मौनं चैवास्मि गुह्यनां ज्ञानं ज्ञानवतामहम् यच्चापि सर्वभूतानां बीजं तदहमर्जुन न तदस्ति विना यस्यात् मया भूतं चराचरम् नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप एष तुद्देशतः प्रोक्तो विभूतिर्विस्तरो मया यद्यद्विभूतिमसत्त्वं श्रीमदूर्जितमेव वा तत्तदेवावगच्छत्वं मम तेजोंशसम्भवम् अथवा बहुलेतेन किं ज्ञातेन तवार्जुन वेष्टव्याहमिदं कृष्ण मेकांशेन स्थितो जगत् मेकांशेन स्थितो जगत् ॐ तस्मत् श्रीमद्भगवद्गीतास्तु शास्त्रि श्रीकृष्णार्जुनसंवादे विभूतियो नाम दशमः।